पञ्चविंशति वर्षतः संस्कृतक्षेत्रे कार्यं कुर्वती अस्ति. तत्पूर्वमपि बहवः संस्कृतक्षेत्रे कार्यं कृतवन्तः. वयमेव भारते संस्कृतकार्यं न कुर्वन्तः स्मः. परन्तु शैली किञ्चित् भिन्ना अस्ति. अस्माकं पूर्वजाः संस्कृतक्षेत्रे साहित्यनिर्माणं, शास्त्ररक्षणम् इत्यादिककार्यं कृतवन्तः. वयं संस्कृतं सामान्यजनं प्रति नेतुं सम्भाषणद्वारा आन्दोलनं चालयन्तः स्मः. एषः एकः विशेषः. परन्तु साहित्यमध्ययनं कर्तुं विशेषसामर्थ्यं किञ्चित् आवश्यकम्. कन्नडभाषां वयं जानीमः, परन्तु कन्नडसाहित्यस्य अध्ययनं कति जनाः वयं कुर्मः? साहित्य अध्ययनार्थं किञ्चित् विशेषज्ञानं सामर्थ्यम् आवश्यकम्. परन्तु कन्नडसम्भाषणं सर्वेषाम् आवश्यकम्. अतः एव संस्कृतसम्भाषणमपि सर्वेषाम् आवश्यकमिति मत्वा संस्कृतसम्भाषणद्वारा वयं संस्कृतस्य कार्यं कुर्वन्तः स्मः. किमर्थं संस्कृतकार्यम्? अस्माकं भारतदेशस्य वैशिष्ट्यमेकमस्ति, संस्कृतिः. प्रपञ्चे सर्वेषां ज्ञानं वयं दत्तवन्तः इति वदामः. पूर्वं न केवलम् अध्यात्मज्ञानं, विज्ञानज्ञानमपि भारततः गतमासीत्. परन्तु शिक्षणे संस्कृतस्य पात्रं नास्ति इति कारणतः ये संस्कृत अध्ययनं कुर्वन्ति ते संस्कृते विज्ञानमिदस्ति तत् ते केन क्रमेण उक्तवन्तः इति न जानन्ति इति कारणतः, आधुनिकविज्ञानं ये जानन्ति ते संस्कृतं न जानन्ति इति कारणतः अस्माकं देशे विद्यमानज्ञानम् इतोपि पूर्णतया बहिः नागतमस्ति. संस्कृतं मम भाषा इति जनैः स्वीकरणीयमिति कारणतः वयं संस्कृतसम्भाषणद्वारा सर्वेषां प्रति संस्कृतं नयन्तः स्मः. आन्दोलनस्य लाभत्रयमस्ति. अद्य प्रातः अपि केचन भाषणे उक्तवन्तः संस्कृतविषये आक्षेपत्रयः सन्ति. एकं काठिन्यमिति, एकं सम्भाषणं न कुर्वन्ति इति, अपरं वर्गीयभाषा इति. संस्कृत आन्दोलनद्वारा एत आक्षेपत्रयाः अपि दूरीकृताः. तर्हि केवलं संस्कृतभाषा प्रचारः एव अस्माकं कार्यं वा? नास्ति. संस्कृतभाषा अस्माकं साधनम्, अस्माकं लक्ष्यमस्ति. एतद् देशस्य वैभवस्थितिं पश्यामः. भारतमातरं पुनः जगज्जननीं वयं कुर्मः. एतदस्माकं लक्ष्यमस्ति. एतं लक्ष्यं स्वीकृत्य अस्माकं भारते अनेके जनाः तेषां जीवनं समर्पितवन्तः, तेषां समयं समर्पितवन्तः, तेषां शक्तिं समर्पितवन्तः, कार्यं कुर्वन्तः सन्ति. वयमपि तैः सह कार्यं कर्तुं, परं वैभवं नेतुम् एतत् स्वराष्ट्रं, वयमपि संस्कृतद्वारा एतत् कार्यं कुर्वन्तः स्मः. यथा आकाशतः पतितः तोयं जलं सागरं गच्छति, अन्यान्य माध्यमं स्वीकृत्य ये कार्यं कुर्वन्तः सन्ति ते सर्वेपि वयम् एकत्र अनन्तरं मिलामः. अस्माकम् एकमेव लक्ष्यं, भारतमातुः जगज्जननी करणीयम्. किं संस्कृत अध्ययनं कुर्मः चेत् भारतमाता जगज्जननी भवति वा? भविष्यति. भारते व्यक्तिनिर्माणस्य आवश्यकता अस्ति.